इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी भारत ब्रिटेनयोः द्विपक्षीय सम्बन्धान् इतोऽपि सुदृढीकर्तुम् औपचारिकयात्रायाम् अद्य सायं युनाइटेड किंगडम देशं सम्प्राप्स्यति। स्वीय ब्रिटिश समकक्षेण श्री कीर स्टार्मर इत्यनेन आमन्त्रितायाम् अस्यां यात्रायां क्षेत्रीय वैश्विक प्रासंगिक विषयेषु विचार विनिमयो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य ब्रिटेन मालदीवयोः द्विदिनात्मक यात्रायै प्रस्थास्यति। लंदन नगरे आकाशवाण्या सह संवादक्रमे ब्रिटेनस्थेन भारतस्य उच्चायुक्तेन विक्रम कुमार दोरई स्वामिना उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आगामी यात्रा उभय देशयोः कृते लाभप्रदा भविष्यति। अत्रान्तरे तेनोक्तं यत् भविष्ये मुक्तव्यापार सम्बद्ध सन्धिपत्रे हस्ताक्षराण्यपि भवितुमर्हन्ति। सहैव अस्य उभयोः अर्थव्यवस्थयोः उपरि सकारात्मक प्रभावः भविष्यति। गतदिने नवदिल्ल्यां विदेश सचिवेन विक्रम मिश्री इत्यमुना मीडियाकर्मिभ्यः विज्ञापितं यत् श्रीमोदी तत्र स्वीयेन ब्रिटिश समकक्षेण कीर स्टार्मर इत्यनेन सह चर्चां साधयिष्यति। अत्रावसरे सः राजा चार्ल्स तृतीयेन सहापि मिलिष्यति। अस्यां यात्रायां भारत ब्रिटेनयोः व्यापक रणनीतिक सहभागितायाः समीक्षणं भविष्यति, यत्र रक्षासुरक्षा, व्यापारः, अर्थव्यवस्था, प्रौद्योगिकी, नवाचारः, जलवायु कार्याचरणं, स्वास्थ्यं, शिक्षा सहैव पारस्परिक जनसहयोगे च विशेष बलं प्रदास्यते।
This visit will give both leaders the opportunity to review the entire gamut of the bilateral relationship and discuss ways to strengthen it further and also discuss issues that are of regional and global relevance. The India-UK partnership was upgraded to a comprehensive strategic partnership in 2021 and since then has seen regular high-level political exchanges and both sides remain committed to taking this partnership to even higher levels.
प्रधानमन्त्री श्रीमोदी द्वितीयचरणे शुक्रवासरे मालदीवदेशस्य द्विदिनात्मक यात्रायै गमिष्यति। प्रधानमन्त्री श्रीमोदी शनिवासरे मालदीवस्य स्वतन्त्रतायाः षष्टितम वार्षिक समारोहे मुख्यतिथिपदम् अलंकरिष्यति। भारतदेशेन पाकिस्तानदेशीय विमानानां स्वदेशीय वायुमार्गे प्रवेशप्रतिबन्धः अगस्तमासस्य 23 दिनांकं यावत् विस्तारितः। केन्द्रीय नागरिकोड्डयन राज्यमन्त्रिणा मुरलीधर मोहोल इत्यमुना सन्दर्भेऽस्मिन् विज्ञापयता कथितं यत् पाकिस्तानीय विमानानां भारतीय वायुमार्गे प्रवेश निषेधार्थं नोटम इत्यस्य अवधि 25-2000तमवर्षस्य 23 दिनांकपर्यन्तं विस्तारितः। तेनोक्तं यत् अयं विस्तारः निरन्तर रणनीतिक विचारान् प्रतिबिम्बयति। गतदिने संसदः उभयोः सदनयोः कार्याचरणं विपक्षस्य विरोध प्रदर्शन कारणात् बाधितम् अभवत्। अत्र तावत् विपक्षिदलेन सिन्दूराभियानं सहैव बिहारे मतदाता सूचेः विशेष गहन पुनरीक्षणं समेत्य अन्येषु प्रकरणेषु चर्चायै अभियाचितम्। लोकसभायां संसदीय कार्यमन्त्रिणा किरेण रिजिजुः इत्यमुना प्रोक्तं यत् सर्वकारः चर्चायै सन्नद्धः वर्तते, परञ्च विपक्षिणः व्यवधानोत्पादनाय प्रवृत्तास्सन्ति। अनवरतं कोलाहलस्य विद्यमानत्वात् सभापतिना कार्याचरणम् आदिनाय स्थगितम्। राज्यसभायामपि इयमेव स्थितिः दृष्टिपथमागता, यस्मात् कारणात् सभापतिना उच्चसदनस्य कार्याचरणम् आदिनाय स्थगितम्। जम्मूकश्मीरस्य उपराज्यपालेन मनोजसिंहा इत्यमुना आतंकवादेन प्रभावितेभ्यः परिवारेभ्यः सौविध्यप्रदानाय वेबपोर्टल फलकम् उद्घाटितम्। एकदिवसीय अन्ताराष्ट्रिय महिला क्रिकेट स्पर्धायां भारतेन गतरात्रौ चेस्टर ले स्ट्रीट नगरे अन्तिमस्पर्धायां इंग्लैंड दलं 13 धावनांकैः पराभूय विजयकिरीटं स्वायत्तीकृतम्। आदौ क्रीडयता भारतीय महिला दलेन 50 क्षेपणचक्रेषु 5 क्रीडकानां हानौ 18-300 धावनांकाः समर्जिताः। प्रत्युत्तरे इंग्लैंड महिला दलेन 75 धावनांकाः एव सम्प्राप्ताः। इति वार्ताः।